पृष्टं वयं वा प्रयत्नं कृतवन्तः वा पेज् नम्बर् 20 गृहपर्यन्तं वयं कृतवन्तः any doubt in tritiya vibhakti any questions
no doubts
anya okay other other prayatnam krutavantah va sarve
aham bhagini kritavati मम एकनिमिषम् आवश्यकम् अहं पश्यामि एकं
सन्देहः चिन्ता अन्य कोऽपि प्रष्टुम् इच्छति वा अथवा अहं साक्षात् गच्छामि वा
प्रश्नं नास्ति भगिनि
सम्यक् उत्तमं सर्वे अवगतवन्तः इति सन्तोषमस्ति किम् इत्युक्ते तृतीयाविभक्ति किञ्चित् इट् इस् वेरि वेरि इम्पार्टेण्ट् यदा वयं कर्मणि प्रयोगस्य उपयोगं कुर्मः तत् बहु आवश्यकं तस्य तृतीयाविभक्त्याः अवगमनं बहु आवश्यकम् अतः एव किञ्चित् पश्यामः इदानीम् अहं जस्ट् ऐल् जस्ट् टेल् यू इन् ब्रीफ् बेसिकलि इट् इस् एन् इन्स्ट्रुमेण्टल् केस् तृतीया विभक्ति यदा अत्र दण्डेन शुनकं ताडयामि इति अस्ति अत्र दण्डेन शुनकं ताडयामि एव सम्यक् सम् आफ् यू वुड् हेव् सम् कन्फ्यूशन् लैक् वै काण्ट् ऐ से शुनकेन दण्डं ताडयामि इति परन्तु तत् अर्थं नास्ति खलु तत्र सिन्स् यु हेव् टु सब्जेक्ट्स् कर्ता you might be having a difficult thinking that where I should actually put it parantu putra artham asti iti pashyamah chet tat anusarena eva karaniyam it is not giving any meaning parantu itopi vayam eka udaharanam drishtavantah iti drishtavantah madrika bhagini kimpi prashtavati kalu ha पेज् नम्बर् 20 लास्ट् एक्साम्पल् काः भवत्यः आगच्छन्ति इति एतत् एकः प्रश्नः तत्र प्रश्ने द्वयमपि सम्यक् अत्र काः भवत्यः आगच्छन्ति इति एकः प्रश्नमस्ति तत्र काः हु आल् आर् कमिङ्ग् वित् यू आल् द्वयमपि तत्र बहुवचनमेव अस्ति तत्र कैः भवत्यः सः आगच्छति अपि सम्यक् कैः भवत्या सह सहशमितं भवत्यः इति बहुवचनमस्ति अतः भवत्यैः इति एकम् आगच्छति सीताभिः भवतीभिः इति आगच्छति क्षम्यताम् तत्र काः इति अस्ति काभिः इति आगच्छति बहुवचनं सो काभिः भवत्यः काभिः सः भवत्यः आगच्छति अलाङ्ग् वित् हूम् यु आल् आर् कमिङ्ग् अपि सम्यक् वित् यु आल् हू इस् कमिङ्ग् भवतीभिः सह काः आगच्छन्ति दट् इस् आल्सो करेक्ट् बट् दीस् आर् आल् वेरि फ्यू एक्साम्पल्स् एक्सेप्शन् अस्तु वा
न अवगतं भगिनी एकवारं पुनः वदतु
पेज् नम्बर् 20 मध्ये पेज् नम्बर् 20 एकवारं पश्यतु लास्ट् एक्साम्पल्
अस्तु
तत्र एकम् अस्ति काः भवत्यः आगच्छति इति अस्ति कौशल्या भगिनी वाक्यं वक्तुं प्रयत्नं करोतु तृतीयाविभक्तिमध्ये वक्तुं प्रयत्नं करोति वा अनन्तरम् अहं वदामि
भवतीभिः सह कै काभिः आगच्छन्ति वा भवतीभिः सह काः आगच्छन्ति वा
हा करेक्ट् इतोपि एकम् काभिः सह भवत्यः आगच्छन्ति वित् हूम् यु आर् कमिङ्ग् यु आल् आर् कमिङ्ग् किम् इत्युक्ते अत्र प्रश्नः अस्ति सो यु हेव् द फ्रीडम् स्वतन्त्रता अस्ति अत्र एतत् एक एक्सेप्शन् एव अन्यत्र इफ् इट् गिव्स् द सेम् मीनिङ्ग् इट्स् ओके बट् वेरि रेर् अस्तु वा सो तृतीया विभक्ति कुत्र कुत्र उपयोगं भवति कोऽपि वदन्ति वा यु हैव् सीन् लास्ट् वीक्
इफ् इट् इस् फार् एन् इन्स्ट्रुमेण्ट् फार् एन्
इमोशन्
अलाङ्ग् वित् सम्बडि
along with somebody very good
three good
ha three so emotion ha avina avisi ha that is not covered so I don't want that answer now so idani that is instrumental case aadhara vibhakti iti etatasya nama dvitiya vibhakti karma vibhakti karma karakah iti agacchati agre pashyama itas एतद् अनन्तरम् आधारविभक्ति द्वितीयाविभक्ति प्रथमाविभक्ति एक्चुलि नामपदं प्रातिपदिकम् इति नाम नेमिङ्ग् वर्ड्स् इति प्रथमाविभक्ति द्वितीयाविभक्ति कर्मपदं कर्म अनुसारेण कुत्र कर्मं प्रचलति तत्र द्वितीयाविभक्ति तृतीयाविभक्ति करण इति आगच्छति तदपि अग्रे पश्यामः इन् सिम्पल् वर्ड् इन्स्ट्रुमेण्टल् विभक्ति इन्स्ट्रुमेण्टल् केस् तत्र वित् कया सह एवं तत् एकम् आगच्छति आधारं किं चषकेन खा पिबामि हस्तेन खादामि इति आधारं किं बै यूसिङ्ग् वाट् वि आर् डूयिङ्ग् द वर्क् तत् एकम् अनन्तरं सः अलाङ्ग् वित् रामेण सह सीतावनं गतवती एवं सः इति सख्या सह अहं चलनचित्रं दृष्टवती इति आगच्छति अनन्तरम् इतोपि एकम् उदाहरणं पश्यामः तत् उदाहरणं गमनार्थम् एकं वदामि द्विवचनम् इति वयं न दृष्टवन्तः दिस् बुक् इस् नाट् वित् इन् जनरल् वि डोण्ट् सी मच् द्विवचनं बट् हियर् इन् तृतीयाविभक्त्यां ऐ वाण्टेड् टु गिव् सम् एक्साम्पल् इन् द्विवचनं टु देन् वि हेव् टु थिङ्ग्स् टु टेल् फार् एक्साम्पल् एकं तु अहं नेत्रेण पश्यामि अहं न स्मरामि अहम् उक्तवती वा न वा इति ऐ थिङ्क् ऐ डोण्ट् एक्स्प्लेन् लास्ट् वीक् नेत्रेण पश्यामि इति अस्ति ऐ सी वित् मै ऐ देट् इस् नाट् फुल्लि ट्रू रैट् बिकास् वि आर् सीङ्ग् वित् टु ऐस् एण्ड् वेन् ऐ से अहं नेत्रैः रामैः इति अस्ति नेत्रैः पश्यामि इति वदामि चेत् बहुवचनम् ऐ डोण्ट् हाव् त्री आर् फोर् ऐस् सो ऐ पर्टिक्युलर्ली वाण्ट् टु टेल् ओन्ली टु देन् ऐ हाव् टु यूस् द्विवचनं रामेण रामाभ्यां रामैः इति अस्ति सो अहं नेत्राभ्यां पश्यामि ऐ डू द वर्क् वित् मै हेण्ड् कोऽपि वदति वा एकवचनम् अहं हस्तेन कार्यं करोमि
अहं हस्ताभ्यां कार्यं करोमि
शोभा भगिनी अहं पादेन गच्छामि
अहं पादाभ्यां गच्छामि
ओके अनन्तरं विजया भगिनी अहं वाहनेन गच्छामि द्विवचनम् वाहनेन गच्छामि द्विवचनं वदति वा
इट् इस् नपुंसकलिङ्ग
वाहनम् समानं खलु फ्रम् तृतीयाविभक्ति पुल्लिङ्ग नपुंसकलिङ्गं समानं
अहं वाहनाभ्यां
वाहनाभ्यां गच्छामि सम्यक् ऐ यूस् टु वेहिकल्स् टु गो संवेर्
Yeah.
I go by train and then by car, something like that, any two vehicles.
Hmm.
It makes sense.
Yeah.
Vahanabhyam gachyami. Kaushalya bhagini. Aham guruna namami. Dvitiya vibhakti. Guru shaktam.
Gurubhyam.
Purnamakam.
Gurubhyam. वाक्यं पुनः भवति भगिनि
वाक्यं पूर्णं न द्वितीयाविभक्ति पूर्णवाक्यम् अहं गुरून् नमामि
गुरून् नमामि मया गुरुभ्यां नम्यते वा कर्मणि प्रयोगः
न न कर्मणि नास्ति द्विवचनं केवलम् अहं गुरुणा नमामि इति वदामि क्षम्यतां अहं गुरुणा इति मया इति आगच्छति अन्य उदाहरणं ददामि न न आवश्यकम् अन्य उदाहरणं ददामि गुरुणा अहं सन्तोषम् अनुभवामि
अहं गुरुभ्यां सन्तोषम् अनुभवामि
अनन्तरं
गुरुभ्यां सह इति आगच्छति वा
गुरुभ्यां पश्य पर्याप्तं
पर्याप्तं
इन्स्ट्रुमेण्ट् इन्स्ट्रुमेण्ट्
बिकास् इट् इस् गुरु लैक् यु नो रामेण सह लैक् दट्
न गच्छामि इति नास्ति खलु गच्छामि नास्ति अहं सन्तोषम् अनुभवामि बिकास् आफ् मै टीचर् ऐ एम् हेपी एमोशन्स् खलु एमोशन्स् अपि अनन्तरं विना पश्यामः अत्र एकं तु अलाङ्ग् वित् आगच्छति अनन्तरं एमोशन्स् आगच्छति अत्र विना इति
प्रयोगः नेत्राभ्यां बिकास् टु ऐस् इस् आल्सो ओके टु ट्रीटेड् एस् वन् पेर् अण्ड् से नेत्रेण सह इस् दट् ओके
वि आर् ट्रीटिङ्ग् दिस् एस् वन् पेर् ओन्ली नो नेत्राभ्यां ऐस्
so it is say netrena it's wrong is it
initially it is accepted that's why we don't say wrong
okay
till
okay.
the time you come to know about this prayoga we did okay. that also in previous yes. before we come to know we use that
okay
but when we know that we have to use the proper prayoga
okay got
so it. That's why I have not told in any of the previous classes about this
Correct, yes.
Now okay. it is the time to know and use it. Netrabhyam, padabhyam, hastabhyam, eva samyak.
Okay. It will be karnabhyam, is it?
Karnabhyam, aam.
Karnabhyam,
sangeetam shrunomi.
Okay. Yes.
Anantram, vina iti prayoga hai. Atra, see one thing in all vibhaktis. You can see one prayogam in one place, one vibhakti. The same prayogam can come in other vibhakti also. There are some examples that by using a proper sentence. This vina iti, vina is without. Vina iti prayogah, dvitiya vibhakti madhya api samyak, tritiya vibhakti madhya api samyak. For example, aham sharkaram vina kafim pibami, kshiram pibami. without the sugar. I drink coffee or milk, whatever it is. Tatra tritiya sharkarena sharkara sreelingam sharkaraya vina coffee pibami tatapi samyakeva. तत्र द्वितीयापि आगच्छति विना प्रयोगे तृतीयापि आगच्छति. इट् इस् अवर् चाय्स् टु यूस् द्वितीया वा तृतीया वा. अनन्तरं जलेन विना जीवनं नास्ति. इफ् देर् इस् नो वाटर् नो लैफ्. जलं विना जीवनं नास्ति अपि सम्यक् अस्तु वा. अत्र तृतीयाविभक्तिमध्ये दत्तम् उदाहरणम्. आल् द एक्साम्पल्स् आर् गिवन्. सो तृतीयाविभक्ति एव अत्र उपयोगं कुर्मः. अत्र पश्यतु सूचना इति अस्ति. विना शब्दस्य योगे द्वितीयाविभक्ति वा पञ्चमीविभक्ति वा चापि भवति. वेन् वि रीड् पञ्चमी देर् आल्सो वि विल् अगेन् रीड् सेम् थिङ्ग्. इदानीं तृतीयाविभक्ति दत्तं विना प्रयोगे. सो वि विल् यूस् तृतीयाविभक्ति. Mostly tritiya vibhakti will this vina will come when without iti artham agachati. Tade aham uktavati jalena vina jivanam nasti. Shakaraya vina jivanam coffee na rochate. I don't like na rochate. I don't like it, something like that. Balakah ambaya vina निद्रां न करोति. द बाय् डसन्ट् स्लीप् वितौट् इस् मदर् इति प्रयोगः आगच्छति. विना इति प्रयोगः. इदानीम् एकैकः एकैकं भवत्याः ध्वनिः किञ्चित् न्यूनमस्ति. युवर् वाय्स् इस् लिटिल् लो.
ओहो, जलं विना जीवनं नास्ति इति वक्तुं शक्यते वा?
आमां,
जलेन विना एव खलु
वा? तदेव इदानीम् अहम् उक्तवती खलु. विना इति प्रयोगं द्वितीयाविभक्तिमध्ये अपि गच्छति, तृतीया मध्ये अपि गच्छति. अत्रापि पश्यतु सूचना इति पेज् नम्बर् 21 मध्ये बाक्स् अस्ति.
अस्तु,
तत्र दत्तं खलु सूचना. विना शब्दस्य योगे द्वितीया विभक्तिः पञ्चमी विभक्तिः चापि भवति इति. तत्र द्वयमपि सम्यक् एव. पञ्चमी अधिकम् उपयोगं न कुर्वन्ति. तत् अन्यं पञ्चमीसमयं पञ्चमीविषयं पश्यामः. इदानीं द्वितीया तृतीया द्वयमपि विना मध्ये आगच्छति. रामेण विना भरतः न लक्ष्मणः न जीवति. रामेण विना इति रामं विना अपि सम्यक् एव. अत्र इदानीं वयं केवलं तृतीयाविभक्तिमात्रम् अत्र उपयोगं कुर्मः. अत्र पश्यतु लेखन्या विना उदाहरणं. लेखन्या विना हरिः लेखितुं न शक्नोति इति अस्ति. अत्र द्वयमपि अस्ति, न करोति इति अपि अस्ति, न शक्नोति इति अस्ति. न शक्नोति वयं जानीमः खलु, वयं पूर्वमेव उपयोगं कृतवन्तः. न शक्नोति जानाति वा? नाट् पासिबल्. न शक्नोति, तत् यूशुलि इट् विल् एक्साक्ट्लि फिट् वित् स्तुमुन् प्रयोगः. स्थातुं द्रष्टुम् इति अन्यसमये अपि आगच्छति, बट् इट् विल् एक्साक्ट्लि फिट् इन् तुमुन् प्रयोगः. अत्र पश्यति चेत् स्थातुं न शक्नोमि, द्रष्टुं न शक्नोमि इति अस्ति. उदाहरणम् अत्र अस्ति, कार्यम् इति अस्ति. रामः स्थातुं न शक्नोति. कार्येन विना रामः स्थातुं न शक्नोति. वितौट् द वर्क् हि केनाट् स्टाण्ड् फर् अ लाङ्ग् टैम्. इट् मीन्स् हि आल्वेस् नीड् सम् वर्क् टु डु. He cannot stand idle. एकैकः एकैक उदाहरणं वदतु. लक्ष्मी भगिनी उपनेत्रम् इति अस्ति, सः द्रष्टुं न शक्नोति. उपनेत्रम् वदति वा?
नास्ति.
ओके, रमा भगिनी वदति वा?
आं भगिनी वदामि. उपनेत्रेण विना सः द्रष्टुं न शक्नोति.
सम्यक्. अनु भगिनी, पादरक्षा.
पादरक्षया विना सा चलितुं न शक्नोति.
उत्तमं. पादरक्षा स्त्रीलिङ्गम्, अतः पादरक्षया विना. शर्मिला भगिनी, आसन्दः.
आसन्देन विना एषः उपवेष्टुं न शक्नोति.
पारुल् भगिनी, दन्ताः.
दन्तेन विना वृद्धः चर्वणं कर्तुं न शक्नोति.
चर्वणं चूयिङ्ग् न शक्नोति. सम्यक्. अनन्तरं न करोति इति अस्ति. आत्मविश्वासः, सः डेश् सः कार्यं न करोति. पद्मावती भगिनी.
आत्मविश्वासेन सह
आत्मविश्वासेन विना
आत्मविश्वासेन विना कार्यं न करोति.
भगिनी, मम एकः प्रश्नमस्ति. रमा वदामि, दन्ताः इति बहुवचने अस्ति वा?
दन्तैः, करेक्ट्. तदेव एषा पार्ल् भगिनी उक्तवती खलु, दन्तैः विना.
दन्तैः.
धन्यवादः. वी केन् बोत् सैड्स्. धनेन विना वी केन् यूस् आर् धनं विना बोत् द थिङ्ग्स् वी केन् यूस्.
तदेव अहम् उक्तवती. सुजया भगिनी, कार्यानम्.
कार्यानेन विना धनिकः सञ्चारं न करोति.
विजया भगिनी, कूर्चः.
कूर्चेन न विना चित्रकारः चित्रं न लिखति.
कूर्चः, थर्ड् एक्साम्पल्. चित्रकारः चित्रं न लिखति. कूर्चः ब्रश्.
कूर्चेन विना
चित्रकारः विना चित्रकारः भगिनी घटी.
घट्या विना सः कुत्रापि न गच्छति. घट्या विना सः कुत्रापि न गच्छति.
भगिनी,
हियर् थर्ड् सेण्टेन्स् पादरक्षा, तो देन् पादरक्षाभिः विना सः चलितुं न शक्नोति.
पादरक्षा अत्र
टु न टु देन्
परन्तु दे हव् गिवन् इन्
पादरक्षाभ्याम्.
इफ् इफ् दे वुड् हव् गिवन् पादरक्षे देन् इट् इस् अ द्विवचनम्.
ओके.
पाद सीता सीते सीताः. पादरक्षा पादरक्षे पादरक्षाः. परन्तु अत्र पाद रक्षा एव दत्तवन्तः खलु, एक एकवचनेन दत्तवन्तः. अतः पादरक्षाः. परन्तु यस् दट् आल्सो मेक् सेन्स्. पादरक्षाभ्यां विना एव सम्यक्. टु चेर्स् वन् पेर् लाजिकलि दट् इस् करेक्ट्.
ओके, थेङ्क् यू. आं थेङ्क् यू. धन्यवादः.
इदानीं कौशल्या भगिनि, धनम्.
धनेन विना जनाः जीवनं न कुर्वन्ति.
श्रूयते 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 किञ्चित् ध्वनि अधः अस्ति डौन् ओके नौ बेटर् पूर्वमेवम् आसीत् इदानीं कौशल्या भगिनी भवती एव नेक्स्ट् उदाहरणमपि वदतु अग्निः
अग्निना ऐन्द्रजालितः दीपं ज्वालयति हरिणा
अग्निः करेक्ट्
अग्निना विना ऐन्द्रजालिकः दीपं ज्वालयति
लक्ष्मी भगिनी इदानीं
अग्निशब्द कथं भवति इति पुनः एकवारं वदतु वा
अग्निः एकवारं एकवाक्यम् अहं पठामि अग्निः अग्नि अग्नयः तृतीया विभक्ति अग्निना अग्निभ्याम् अग्निभिः हरिशब्दं समानमेव
हरिणाम्
आम् हरिणा समा हरिभ्यां समानमेव परन्तु इन् जनरल् तत् एकं भवन्तः एव जानन्ति वेन् यु रीड् अग्नि जलं तत्सर्वम् अन्नं तत्सर्वं सर्वदा एकवचने एव भवति बहुवचनम् अग्निभ्याम् इति वयं युश्लि न वदामः
अहम् अग्न्या
देर् आर् एक्सेप्शन् केसेस् अग्निः अग्निना एव सम्यक् लक्ष्मी भगिनी इदानीं प्रयत्नं करोति वा शय्या
शय्येन अपि निर्धनः शय्येन अपि
पश्यतु सीताशब्दम् अथवा रमाशब्दं रमया सीतया इति आगच्छति शय्यापि स्त्रीलिङ्गं सीतया पुनः प्रयत्नं करोतु करेक्ट् शय्यया
निद्रां करोति
सम्यक् विना प्रयोगः अभवत् अनन्तरं अहं वदामि उदाहरणं तत् भवन्तः एव कर्तुं शक्नुमः मम आगमनेन सः सन्तुष्टः इति फिफ्त् रोमन् लेटर् पश्यतु तत्र हौ डिफ्रेण्ट् वेस् यु केन् यूस् तृतीया विभक्ति इति मम आगमनेन सः सन्तुष्टः बिकास् ऐ केम् हि इस् हेपि तत्र मम आगमने इति षष्टि एव प्रारम्भः अस्ति अहम् आगमने इति न आगच्छति मम आगमनेन बिकास् ऐ केम् हि वास् वेरि हेपि इति अस्ति समानं कथं कुर्मः इति यत्र एमोशन्स् कारणं द रीज़न् ततः एतत् कारणविभक्तिः इति तस्य नाम अस्ति तृतीया विभक्ति एषा वार्ता कोपः प्रवृत्तः इति अस्ति वार्ता अत्र स्त्रीलिङ्गप्रयोग एषा वार्तया बिकास् आफ् दिस् वर्ड् एषा वार्तया कोपः प्रवृत्तः बिकास् आफ् दीस् वर्ड्स् He got angry. Someone got angry. एतादृशं चिन्तनं मनः कलुषितम् एतादृशं चिन्तनेन इति आगच्छति वाट् इस् द रीज़न् अत्र पश्यति चेत् यु मे हेव् वन् डौट् वेर् ऐ शुड् पुट् इट् एषा इति अस्ति तत्रापि एतेन इति आगच्छति That is also there, visheshana visheshyam iti. तत् वयम् इदानीं न पश्यामः. हियर् यु हेव् टु सी वाट् इस् द रीसन्. एषा अपि अस्ति, वार्ता अपि अस्ति, कोपः अपि अस्ति. सो वाट् इस् द रीसन् फर् दट् दट्स् वै देव् इट् अस् अ कारणं. कारणं बेसिकलि कारणवाचकः. क्षम्यतां, करणविभक्तिः इति आगच्छति. कारणवाचकः इति अस्ति. कारणं किं, रीसन् इति दृष्ट्वा तत्र स्थापनीयम्. अविवेकः महती विपत्. अविवेकेन महती विपत् इति अर्थः आगच्छति. एतत् भवन्तः प्रयत्नं करोति वा? वन् बै वन् केन् ऐ काल्? आर् यु वन् सम् मोर् एक्साम्पल्? केन् एनिथिङ्ग् रिक्वैर्ड्? When we go, maybe your doubts will go.
Bhagini, first sentence, etadrisham chintanam manaha kalushitam, etadrishena chintanena manaha kalushitam.
Tadeva aham uktavati. Correct. Tadeva
etadrisham.
तत्र विशेषणं विशेषणम् इति भवति. अत्र अपि दत्तवन्तः उदाहरणेन अपि. परन्तु अहं प्रथमं ऐ वाण्ट् द फस्ट् सेण्टेन्स् टु बि करेक्ट्, द मूलवाक्यम्.
अस्तु,
एषा वार्ता इति अस्ति. तत्र एतया इति तृतीया विभक्तिमध्ये एतया वार्तया एतादृशेन वा विषये चिन्तनेन. परन्तु प्रथमम् अवगतं वा इति पश्यामः. अविवेकेन इति अस्ति. नेक्स्ट् उदाहरणम् अनुभगिनी वदति वा? धावनं,
धावनेन मार्गे पतितः.
बिकास् हि वास् रन्निङ्ग् सम्बडि, हि आर् शी डस् नाट् गिवन् बिकास् आफ़् रन्निङ्ग्
हि फेल्
फेल् डौन्. रमा भगिनी, देवानुग्रह.
वदामि भगिनि, दैवानुग्रहेण अपायः न जातः. धन्यवादः.
सुजया भगिनी, कथनम्.
कथनेन किमपि न प्रयोजनम्.
इट् मीन्स् जस्ट् बै टाकिङ्ग्. कथनम् इत्युक्ते विजया भगिनी, आगमनम्.
आगमनेन सर्वे तुष्णीं स्थितवन्तः.
अनारोग्यं, लक्ष्मी भगिनी.
भगिनि, तुष्णीं
मौनं, मौनं, सैलेंट.
भगिनि, अपाय,
अपायं, डेंजर्. अपायं मीन्स् डेंजर्.
अनारोग्येन
कृशः. शोभा भगिनी, शिरोवेदना.
शिरोवेदनेन कार्यालयं न गतः.
न, पश्यतु, शिरोवेदना इति अस्ति.
ओके, शिरोवेदना या कार्यालयं न गतः.
वेदनया रमया इति आगच्छति खलु. कौशल्या भगिनि, अग्निस्पर्शः.
अग्निस्पर्शेन
अत्र कारणम् अपि, एमोशन्स् अपि, विना अपि, सः अपि, अनन्तरं द इन्स्ट्रुमेण्टल् आधारम् अपि. इन् अट्ले आल्मोस्ट् वि हर् सीन् फैव् वेरैटीस् इन् तृतीयाविभक्ति. अस्तु वा? नेक्स्ट् उदाहरणं प्रयाणसमये किमपि शब्दम् आगच्छति इफ् यु आर् नाट् इन् अ क्वयट् एन्वैरन्मेण्ट् प्लीस् पुट् इट् आन् म्यूट् वेन् ऐ काल् युवर् नेम् यु केन् अन् म्यूट् अत्र यदा अहम् उक्तवती खलु वाहनेन गच्छामि प्रयाणसमये कथं वयम् उपयोगं कुर्मः इति पश्यामः फार्म् भगिनि सीता द्विचक्रिका गृहम् वाक्यं वदति वा
हा सीता द्विचक्रिकेन कया द्विचक्रिकया गृहं गच्छति
पद्मावती भगिनी चिन्मयः बैक् यानं कार्यालयः
चिन्मयेन चिन्मयः वैद्यालयान् बैक् यानेन कार्यालयं कार्यालयः गतः
शर्मिला भगिनी जनाः लोकयानं गृहं
जनाः लोकयानेन गृहम् आगच्छन्ति और्
प्रतिनिवासन्ति किमपि लक्ष्मी भगिनी वयं सुखयानं ग्रामः
वयं सुखयानेन ग्रामः गच्छामः
वयम् इति अस्ति खलु अतः गच्छामः सुखयानम् इत्युक्ते किम् एनि ऐडिया एनिवन् शोभा भगिनि प्रयाणिकाः विमानं विदेशः
प्रयाणिकाः विमानेन विदेशः गच्छन्ति
विदेशं गच्छन्ति तत्र पुनः द्वितीया अपि आगच्छति कर्मम् इति कार्यसमये द्वितीया अपि तत्र पूर्व उदाहरणमध्ये अपि वयं सुखयानेन ग्रामं गच्छामः इति एव आगच्छति द्वितीया तृतीया द्वयमपि आगच्छति इदम् इन्फ्याक्ट् त्री वयम् इति प्रथमा विभक्ति सुखयानेन तृतीया विभक्ति ग्रामं द्वितीया विभक्ति त्री विभक्तिस् इन् वन् प्लेस् एवं समानं वयं पश्यामः सप्तमी विभक्तयः सप्तमाः सप्तमी विभक्तयः एकवाक्येन अपि वयं रचयामः अन्तिमे अट् एण्ड् कौशल्या भगिनि आरक्षकाः जीप् यानं कोलाहलस्थलम् कौशल्या भगिनि
श्रूयते वा भगिनि
हा इदानीं श्रूयते
आरक्षकाः कोलाहलस्थलं गतवन्तः
हा गच्छन्ति अथवा गतवन्तः किमपि विजया भगिनी एते
एते
अत्र मेटोड् यानम् इति अस्ति मेटाडर् वेन् इति वदामः खलु तत्
एते मेटाडोर् यानेन यानेन तिरुपतिं गच्छन्ति
गच्छन्ति किमपि अनुभगिनी ग्रामीणाः नौका तरन्ति
ग्रामीणाः नौकाया तरन्ति
पुनः नौका कथम् आगच्छति ग्रामीणा
नौकया तरन्ति.
रमा भगिनि भक्ताः
भक्ताः रेलयानेन मथुरां गमिष्यामः.
न गमिष्यन्ति भक्ताः थर्ड् पर्सन् खलु. मथुरां गमिष्यन्ति
मथुरां गमिष्यन्ति.
अग्रे अस्ति राजारथः मन्दिरं. भवती एव वदतु.
राजा रथेन मन्दिरं गतवान्.
अनन्तरं यदा धनम् आगच्छति अमौण्ट् 10 rupees 20 rupees इति किमपि आगच्छति तत्रापि द्वितीया विभक्ति आगच्छति परन्तु सर्वदा बहुवचनेन आगच्छति. किम् इत्युक्ते एकं रुपया इति वदामः चेत् एव एकम् आगच्छति. 2 rupees इति वदामः चेत् तत् इदानीं नास्ति किमपि न लभ्यते अतः सर्वदा न लभते अपि सर्वदा बहुवचनेन आगच्छति. पश्यतु अहं 10 rupees एकां लेखनीं क्रीतवान्. समानं धनम् अस्ति अत्र उदाहरणे रूप्यकैः इति वदति वा. प्रथमं नम्बर्स् मध्ये सन्देहम् अस्ति चेत् अधः 1 2 3 अस्ति खलु तत् दृष्ट्वा वदतु. के वदन्ति प्रथमं स्यूतः.
अहं वदामि वा.
हा वदतु भगिनि.
अहं 100 rupees एषः स्यूतः कृतवती.
सम्यक् उत्तमं. अन्यः भगिनी एकनिमिषं पारं भगिनी वदति अनन्तरम् अनुभगिनी वदति.
अहं 12 rupees किलोमीटर् शर्करा क्रीतवती.
हा सम्यक् अनुभगिनी वदतु. शाटिका.
अहं
इति अस्ति प्रयत्नं करोतु.
त्रिंशत्
नास्ति 350 इति अस्ति.
350 त्रीणि शत.
तत्र
वदतु. अहं 34
पञ्चत्रिंशत्
रूप्यकै शाटिका
त्रिशतं कुत्र
300
न पूर्णवाक्यं वक्तव्यं.
अहम्
अन्य कोऽपि
अहं
अस्तु भगिनि. अन्य कोऽपि वदति वा.
50 rupees
शाटिकां क्रीतवती. यदा उपरि शतम् उपरि गच्छति अबौ 100 यदा गच्छति तदा प्रथमं यू नीड् टु टेल् दट् सेकेण्ड् सेकेण्ड् अण्ड् थर्ड् डेसिमल् यू नीड् टु यूस् द लास्ट् डेसिमल् तत् उक्त्वा अनन्तरं वक्तव्यं. पश्यतु सहस्रनाममध्ये कथं वदामः. अस्तु 108 कथं वदामः यदा पूजां कुर्मः. अष्टोत्र इति वदामः खलु, अष्ट एय्त्, परन्तु तदेव प्रथमं वदामः, समानम् अत्रापि पञ्चाशत् अधिकत्रिशतं रूप्यैकैः धनं शाटिकां क्रीणामि अथवा क्रीतवती किमपि. अन्य उदाहरणं कोऽपि प्रयत्नम्, अन्य कोऽपि, हुएवर् हस् नाट् टोल्ड् येट्, अन्य कोऽपि प्रयत्नं कुर्वन्तु. उत्पीठिका इति अस्ति, नम्बर् अस्ति अत्र.
अहं वदामि भगिनि. अहं पञ्चादश अधिक सप्तशत रूप्यकैः ददामि.
उत्पीठिकां
क्रीतवती.
पुनः अन्य कोऽपि वदतु.
पञ्चशतं
शतसहस्रम् इति सम्यक् न श्रूयते.
पञ्चाशत् अधिकं
अधिक तदेव शब्दवती खलु
सा पञ्चादश इति उक्तवती.
पञ्चादश पञ्चाशत् अग्रे कोऽपि वदति वा. तर्टि कर्तरि, एतत् सुलभम्.
अहं वदामि
अन्य कोऽपि, अन्य भवती उक्तवती खलु, अन्य कोऽपि
अहं वदामि.
अहं
त्रिंशत् रूप्यकै कर्तरि क्रीतवती.
अग्रे इतोपि एकस्थाने वक्तुं प्रयोगः अस्ति. अलम् इति, अलम् इत्युक्ते एनस् इति अर्थं, तत्रापि तृतीया उपयोगं भवति, परन्तु मोस्ट्लि अलं, यदा अलम् इति शब्दम् आगच्छति तदा तृतीया विभक्ति एव आगच्छति. अलम् इति शब्दम् आगच्छति लैक् विना, विना मध्ये चाय्स् अस्ति. अत्र इन् जनरल् तृतीया आगच्छति. देर् आर् टु अलम्, एनफ् इति अर्थः स्टाप् इति अर्थः जनरलि, अतः चतुर्थी अपि आगच्छति. तत् अग्रे चतुर्थी समयं पश्यामः, इदानीं तृतीया मात्रं पश्यामः. मोस्ट्लि इट् विल् बि यूस्ड् इन् डैरेक्ट् सेण्टेन्स्. अत्र बहु एकं कामन् एकं पापुलर् सेण्टेन्स्, अलं दुर्योधनेन, अलं दुर्योधनाय इति आगच्छति तृतीया चतुर्थी. एनफ् दुर्योधना इति अस् अर्थं तत् भगवद्गीतायां कुत्रापि आगच्छति. अत्र पश्यतु, बालाः तूष्णीं तिष्ठन्तु अलं कोलाहलेन. एनफ् आफ् प्ले अलम् इति अर्थम्, अलं कोलाहलेन. तूष्णीं तिष्ठतु, मौनेन तिष्ठतु इति अर्थं तूष्णीम् इत्युक्ते. अन्य उदाहरणमस्ति, अयि भगिन्यः, अयि इत्युक्ते
Bhagini, it's 1 hour now. I am just wondering if you want to take a rest. 1 hour is...
Chinta mastu, Bhagini. I'm just logically complete.
Okay, thank you.
Anantaram sarvam abhyasam. Whatever is there, no? All are abhyasam. So, I thought I'll just finish it. Dhanyavadaha. अलम् इति शब्दं जनरलि तृतीया विभक्ति, बिफोर् द तृतीया विभक्ति. पश्यतु अत्र तूष्णीं तिष्ठन्तु अपि अस्ति, अलं कोलाहलेन. सो यु मे हाव् द डौट् वेर् ऐ शुड् पुट् तृतीया विभक्ति इति. जस्ट् बिफोर् अलं, लैक् विना ओन्ली, जस्ट् बिफोर् विना. हियर् जस्ट् बिफोर् आफ्टर् अलं तृतीया विभक्ति विल्कम्. अत्र जल्पनम् अयि भगिन्यः अलं जल्पनेन इति अस्ति. जल्पनम् इत्युक्ते गासिपिङ्ग्. सो अयि भगिन्यः इति अस्ति, अत्र यूश्वलि अयि शब्दं मीन्स् लैक् अ सम्बोधन विभक्ति. हे लेडी, प्लीस् स्टाप् गासिपिङ्ग् इति अर्थं. अत्र अत्र अतिविस्तरः शोकः साहसम् अविवेकिका धावनम् इति अस्ति. यु केन् इन् सिम्पल् वर्ड्स् यु केन् जस्ट् यूस् इट्. अलम् अतिविस्तरेण किमपि अर्थमस्ति वा अतिविस्तरेण इति वदामः चेत् अर्थं कोऽपि वदति वा अतिविस्तरेण?
इन् डीटेल्?
हा हा इन् डीटेल् अतिविस्तारं न आवश्यकम् इति कुत्रापि. यु केन् यु डोण्ट् नीड् टु एक्स्पाण्ड् द सिटि, यु डोण्ट् नीड् टु एक्स्पाण्ड् युवर् स्पीच् किमपि. हा अतिविस्तरेण सेम् एक्साम्पल् यु केन् यूस् ऐ भगिन्यः अलम् अतिविस्तरेण. यु यूस् द सेम् ऐ भगिन्यः एण्ड् देन् यु केन् यूस् दिस्. नेक्स्ट् वन् शोकः इति अस्ति. शोकः कोऽपि वदति वा?
भगिनि
हा वदतु भगिनि.
हे अर्जुन, हे पार्थः, अलं शोकेन.
अग्रे साहसम्.
हे बालक, अलं साहसेन.
अविवेकिता.
अहे रामः, अलम् अविवेकितया.
हा धावनम्.
उपविशन्तु अलं धावनेन.
हा सम्यक्, उपविशन्तु अलं धावनेन. अग्रे किं किं दत्तवन्तः, एतत् सर्वं समान उदाहरणं. वयं किं दृष्टवन्तः एतावत्पर्यन्तं तदैव लेखितव्यं. तत्र शब्दमपि अस्ति. अहं शब्दरूपं न कृतवती अद्य. अहं चिन्तितवती एतत् तृतीया प्रथमं समापयामः इति. शब्दरूपं भवन्तः अत्रैव स्थित्वा एकैकशब्दरूपम् एकैक वन् वन् केन् टेल् वन् वन् शब्दरूपं. यु केन् सी अण्ड् टेल् आल्सो वाट् एवर् यु हेव् आल्रेडि मेमरैस्ड्. यु केन् टेल् ट्रै टु टेल् वितौट् सीयिङ्ग्. द ग्रूप् अभ्यासः भवति. गृहपाठं कुर्वन्तु. अग्रे वयं चतुर्थीविभक्तिं पश्यामः. अस्तु, अहं विरमामि. ऐ विल् जस्ट् लीव्. ऐ डोण्ट् क्लोस् दिस् मीटिङ्ग्. यु केन् स्टे अण्ड् दौ शब्दाभ्यासः, शब्दरूपस्य अभ्यासः किञ्चित् कृत्वा गच्छन्तु. हा राम राम.
राम राम भगिनी.
राम राम. धन्यवादः भगिनी.
धन्यवादः.
वयम् अग्रे रिक्तस्थानानि पूरयामि वा? अग्रे रिक्तस्थानानि पूरयामः वा?
रिक्तस्थानानि
आं भगिनि.
अहं
वदामः.
कोऽपि वदति वा?
वदतु. वदति रमा सतीश. रमा सतीश भगिनि फस्ट् वन्
वदतु. वदतु भगिनि.
आवरणे दत्तानां शब्दानां उचितैः रूपैः रिक्तानि स्थलानि पूरयतः. पाचकः छुरिकया शाक कर्तयति.
ओके, सेकेण्ड् वन्. सेकेण्ड् वन् वदतु. कोऽपि वदतु.
सुजया भगिनि.
अहं वदामि. अहं वदामि. अर्जुनः बाणेन कौरवान् भारितवान्. यर् बाणः. बाणः सो हा बाणेः. बाणेः या बाणेः.
बाणैः.
हा बाणैः.
महिलाभिः अहं वदामि. महिला सम्मार्जन्या मार्जितवती.
ओके. फोर्थ वन्, हु विल से फोर्थ वन्?
कौशल्या भगिनी अस्ति वा?
अहं वदामि. पद्मावती. चित्रकारः अङ्कन्याः अङ्कन्याः अङ्कनीभिः कूर्चयाः
कूर्चैः
च चित्रं लिखति.
कौशल्या भगिनी वदतु.
भवती कया सह आगतवती?
ह्यः भवान् जनन्या सह कुत्र गतवान्?
आं सम्यक्. अहं वदामि वा?
सर्वं
सर्वैः सह कलहं करोति.
इस् इट् सिङ्ग्युलर् आर् प्लूरल्? सर्वेण. सर्वेण इट्स् अ कलेक्टिव् सर्वे कलेक्टिव् नाउ आई थिंक.
नो, इट्स् अ प्लूरल. सर्वे प्लूरल. सर्वः इस् सिङ्ग्युलर्. सर्वौ इस् द्विवचन एण्ड् सर्वे
सर्वः सर्वौ सर्वे
सर्वः
सर्वे
रामः रामौ
सर्वौ सर्वे
सर्वे सर्वौ सर्वाः
सर्वा. इस् इट् पुल्लिङ्गः
सर्वे प्रथमाभक्ति एकवचनं सर्वे?
नो नो नो, सर्वः इस् वन् सिंगुलर.
सर्वः इस् रामशब्दः.
सर्वैः
देन् इट् इस् सर्वैः.
सर्वः सर्वः सर्वे
भवन्तः अपि
प्रथमा बहुवचनं. सर्वे प्रथमा बहुवचनं. प्रथमा बहुवचनं
सत्यम्.
सर्वः सर्वौ सर्वाः नो रामः रामशब्द
पुल्लिङ्ग बहुवचनं. पुल्लिङ्ग बहुवचनं
सर्वः सर्वौ सर्वाः नो देन् इट् इस् रामः रामौ रामाः
सर्वः
पुल्लिङ्ग बहुवचनं.
इट् इस् डिफरेण्ट्लि.
इट् इस् डिफरेण्ट्.
या
सर्वे
सर्वः सर्वौ सर्वे
सहसौ
ते
सर्वशब्दः तृतीया विभक्ति. सर्वया सर्वाभ्यां सर्वाभिः इति भवति. अहं दृष्टामि
सर्वेण सर्वाभ्यां सर्वैः.
ओहोहो,
इट् इस् डिफरेण्ट् फार् स्त्रीलिङ्ग् एण्ड् पुल्लिङ्ग्.
यदि स्त्रीलिङ्ग भवति समये
सर्वेभिः स्त्रीलिङ्ग भवति सर्वा सर्वे सर्वाः
भवन्तः अपि भवन्तः अपि अस्माभिः भवन्तः अपि अस्माभिः सह संस्कृतं पठन्तु भवन्तः अपि अस्माभिः सह प्लूरल् नो प्लूरल्
प्लूरल् धनेन विना जीवनं कठिनं
करेक्ट्
धनेन
दन्तैः विना श्रवणं न शक्यं दन्तैः विना भक्तिः हरिशब्दः
भक्त्या विना पूजया कः लाभः
भक्तिः भक्त्या न पूजया कः लाभः भिक्षुकः आशा भिक्षुकः आशया विना
आशया आशया विना विशेषता
विशेषतया
नो नीड् आफ़्
विना
विशेषतया
समीपं गत्वान् वित् आशा हि केम् टु द डोर् भिक्षुकः आशया द्वारसमीपं गतवान्
गतवान् विशेषतया वक्तव्यं किमपि नास्ति
कलहेन
कलहेन
न्यायनिर्णयः न भवति
सः ताडनेन शुनकस्य कोऽपि वर्धयति ताडनेन अश्रुविमोचन अश्रुविमोचनेन
विमोचनेन
औषधस्य
औषधस्य उच्चारणमन्त्रेण
मात्रेण
मन्त्रेण रोगः न
मात्रम्
अपगच्छति
मात्रेण विना वेगदूतयानेन सामिसुखयानेन वा वयं धर्मस्थलं गच्छामः दशदिनानि दशदिनानैः दशदिनैः दशदिनैः सह अस्वस्थः अस्ति नो नो ऐ थिङ्क् टेन् नो नो ऐ थिङ्क् नो
दश
नम्बर् no mitra
chintaya chintaya utishtatu
chintaya
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 alam chintaya utish utishtatu
mama ekam prashnam asti exercise second rukshataya kim artha
rukshataya harshly harshly
How would we say 350? How would we say 350 rupees? 350 rupees?
I didn't understand. I couldn't understand.
पञ्चाशत्
अधिक
I think we have to practice this. We have to practice this. Yeah, okay. Yeah.
175 rupees, how would we say? 175.
Don't ask difficult, Parul, don't ask difficult questions.
Panchasaptati adhika ekashatam.
Ekashatam. Panchasaptati hi ekadhikam. Ek
saptati. Panchasaptati adhika.
अधिक
एकशतम्
ओके
ओके देन् ओके
गच्छावः वा
वी विल् डू दिस्
गच्छामः
वन् पेयर् वन् टेबल् इस् देयर् आफ् थर्ड् विभक्ति
वन् मोर् थिङ्ग् त्वराय किमपि अर्थं त्वराय पास्
क्विक्लि शीघ्रं
Quickly.
Shigrena.
Dhanyavadaha.
Dhanyavadaha. Dhanyavadaha.
Dhanyavadaha. Punar milama. Agrima. Bhoma vasare. Punar milama.
Punar milama. Dhanyavadaha.
Dhanyavadaha. Hari Om. Ram.